चित्रं सप्तदशः ईशस्य कृषेण बलिदानं सैन्यानां प्रभु ईशस्य काष्ठमेषु कृशारोहेण अदमेव कृशेण सदा उरियेण दण्डनं तेषु तस्येना विलिखितं तस्य क्षणेषु ईशूनां न मरणयन्ति तद्दिनेषुम् इदं किञ्चिज्जनाङ्गम् इदमेव नियमानि खण्डित तेषाम् इदं विधानेन भयङ्करमरणं सम्प्राप्तयतम् इति द्वे चोरस्यानां तत् इरुपक्षं कृशेषारोहणं निर्मितं तु च ईशस्य मा अपराधि सः एनेव दुष्टकार्यं नाकुर्वति प्रभु ईश्वस्य अहमेव शिक्षास्मृति तस्य भुजस्कन्धेषु स्वीकरति अयं सर्वाणां पापीनाम् इदं विधानेषु वयमेव मरणशिक्षापात्रम् अयमेव पापकार्येषु तक्षणं प्रभु ईशेषु वयमस्य पापकारणेषु तस्य प्राणत्यागं कार्यं कुर्वन्ति इदं वयामेषु इदं वचनम् अङ्गीकरत्वं वयमेव पापीणां च ईश्वराणाम् अहमेव आगच्छ तस्य क्षमापणम् अर्जयसु मा ईश्वरम् अयमेव क्षमिषु प्रभु ईश्वेषुं त्वं विश्वासं पदं यूयमेव क्षमापणं शाश्वतम्।